सर्वेषां स्वागतम्. प्रथमं ध्येयमन्त्रं वदामः. अस्तु भगिनी.
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्. संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्. आत्मानं माहुतं मन्ये, वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणं ननु कुर्याम विश्वं शान्तिसमन्वितम्. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. ॐ
धन्यवादः भगिनी. अस्तु वयम् इदानीं शीघ्रं तृतीया विभक्ति महोदय वदतु, प्रश्नः वा? द्वितीया विभक्तिं दृष्ट्वा अग्रे गच्छामः. द्वितीया विभक्ति रूपम् एवम् अस्ति. अस्तु ध्वनिः आगच्छति, अहं सर्वान् म्यूट् करोमि. अस्तु. सो अत्र सर्वत्र मकारः दृश्यते. ओके, दट् मीन्स् इट् इस् सीन्. रामः रामम्, सीता सीतां, रमा रमां, गौरी गौरीं, मकार. नपुंसकलिङ्गे प्रथमविभक्तौ अपि मकारः अस्ति खलु. पुस्तकं, वनं, कन्दुकम् इत्यादि. सो अतः तत्र प्रथमाविभक्तिरूपं द्वितीयाविभक्तिरूपं द्वयोः मध्ये भेदः नास्ति. अस्तु अस्तु. अत्र सर्वनामपदं, सर्वनामपदं सः तौ ते प्रथमाविभक्तिरूपं पुल्लिङ्गे. द्वितीयाविभक्ति तं तौ तान्, तं तौ तान्. तथा एव कः अस्ति चेत् तं कम्. तं यथा अस्ति तथा एव कम् अपि अस्ति. तं तौ तान्, कं कौ कान्, एवमेव तां ते ताः, तां ते ताः, कां के काः. नपुंसकलिङ्गे भेदः नास्ति खलु. सो तत्ते तानि, तत्ते तानि एव. किं के कानि, किं के कानि एव. अत्र विशेषः कः इत्युक्ते स्त्रीलिङ्गे प्रथमाविभक्तिरूपं रमा रमे रमाः, रमा रमे रमाः. द्वितीयाविभक्तिरूपे रमाम् एव भिन्नरूपं, रमाम्, रमे रमाः, रमां रमे रमाः. प्रथमाविभक्ति रमा रमे रमाः, द्वितीयाविभक्ति रमां रमे रमाः. ईकारान्त स्त्रीलिङ्गे कथं भवति? गौरी गौर्यौ गौर्यः, लेखनी लेखन्यौ लेखन्यः. अत्र मकारः अस्ति खलु. गौरीं गौर्यौ समानरूपं, प्रथमाविभक्ति द्वितीयाविभक्ति समानरूपं. गौर्यौ गौरीः, रमाः यथा रमाः अस्ति तथा एव गौरीः. लेखनीं स्वीकरोमि, लेखन्यौ स्वीकरोमि, लेखनीः स्वीकरोमि, तथा एव भवति. अस्तु, भवती शब्दमपि ईकारान्तवत् एव. भवती भवत्यौ भवत्यः प्रथमाविभक्तिरूपं, द्वितीयाविभक्ति भवतीं भवत्यौ भवतीः अस्तु भवान् शब्दः किञ्चित् भिन्नः अस्ति प्रथमाविभक्तिरूपं भवान् भवन्तौ भवन्तः नकारः अस्ति भवन्तः द्वितीयाविभक्तिरूपं भवन्तं भवान् प्रथमाविभक्ति भवन्तं द्वितीयाविभक्ति भवन्तौ समानमेव अत्र नकारः नास्ति भवतः भवतः इति पञ्चमी षष्ठी एकवचनमपि भवतः नाम किं भवतः धनं स्वीकरोमि अस्तु अत्र भवतः पश्यामि वयं सन्दर्भानुसारम् अर्थं जानीमः अस्तु अग्रे अस्मद् शब्द अस्मद् इत्युक्ते अहम् अहम् आवां वयम् अहम् आवां वयं प्रथमाविभक्तिरूपम् अत्र माम् आवाम् अस्मान् आवाम् इति समानरूपम् सर्वत्र समानरूपं प्रथमाविभक्ति द्वितीयाविभक्ति द्विवचनरूपं समानं सर्वत्र समानं माम् अस्मान् अस्तु भगिनि
अस्मत् शब्दे माम् एण्ड् देन् वन् स्ट्रोक् एण्ड् यु हव् गिवन् मा इन् दट् एक्स्टेण्डेड् वर्क्शीट्
अस्तु
And then you have avam, you have given now. And asman, you have given naha. So how is that used?
Yeah, we can use as an alternative, Bhagini. But
that's what? It is, you can say asma naha, is it?
No.
Or either, just naha?
Either asman or naha.
Oh, so you say now or avam? You'll say ma or ma?
Dhanyavada. Chinta master. So, atra sloka hasti kalo bhur bhuvasuvah tat savitur varenyam bhargo devasya dhimahi diyo yo nah prachodayat. Diyo yo nah prachodayat. So, tatra nah itikte अस्मान् प्रचोदयात् अस् षष्टि विभक्ति अपि तथा एव भवति अस्तु अग्रे गच्छामः द्वितीया विभक्ति एवम् अस्ति कुत्र द्वितीया विभक्तिरूपं भवति इति कर्मपदम् इत्युक्ते आब्जेक्ट् खलु किं नयति बालकः लेखनीं नयति नयति कः नयति बालकः नयति सो अतः बालकः प्रथमाविभक्ति बालकः किं नयति लेखनीं नयति अतः लेखनी लेखनीं भवति द्वितीयाविभक्तिरूपं भवति अहं कं पश्यति बालकं पश्यति बालिका बालकं पश्यति बालिका कं पश्यति बालकं पश्यति प्रश्नः अस्ति किम् अथवा कम् अथवा काम् त्रयः प्रश्नाः सन्ति प्रश्नत्रयम् अस्ति अस्तु कर्मपदं कुत्र गच्छति डेस्टिनेशन् इति अस्ति चेत् गमनक्रिया अस्ति चेत् गमनक्रिया इत्युक्ते गच्छति आगच्छति नयति आनयति अन्य किमपि चलति सो अत्र कुत्र गच्छति तस्य पदस्य द्वितीयाविभक्ति भवति द्वितीयाविभक्तिरूपं भवति आपणं गच्छ आपणः तत्र अस्ति दूरे अस्ति अहम् आपणं गच्छामि इति एवमेव विना शब्दे अपि द्वितीया अथवा तृतीया अपि आगच्छति द्वितीया विभक्ति अथवा तृतीया उदाहरणार्थं रामं विना सीता न गच्छति रामं विना अथवा रामेण विनापि वक्तुं शक्नुमः इदानीं द्वितीयारूपे त्वान्तरूपं ल्यबन्तं तुमनन्तं पदानां योगे अपि द्वितीयविभक्तिरूपं भवति आपणं गत्वा आपणम् आगत्य गत्वा त्वान्तरूपम् आगत्य ल्यबन्तरूपं गन्तुं तुमनन्तरूपम् अस्तु परितः उभयतः परितः इत्युक्ते सर्वत्र सर्वदिक्षुषु अस्ति इति गृहं परितः उद्यानम् अस्ति मार्गम् उभयतः वृक्षाः सन्ति अथवा कार्यानानि सन्ति नदीं परितः नदीम् उभयतः नदीम् उभयतः नौकां परितः जलमस्ति नौकां परितः मीनाः सन्ति अस्तु अत्र कर्मपदं कुत्र आगच्छति इत्युक्ते क्रियापदं द्विधा भवति खलु सकर्मक अकर्मक धातु इति सकर्मकधातु विषये एव कर्मपदं भवति उदाहरणार्थम् अहं पश्यामि किं पश्यामि पुस्तकं पश्यामि सङ्गणकं पश्यामि अतः पश्यति इति सो अत्र धातु अस्ति दृष्धातु सकर्मकधातु अहं हसामि अहं किं हसामि तत्र उत्तरं नास्ति अतः हस् धातु अकर्मकधातु एवमेव धातवः द्विकर्मकं भवति द्विकर्मकम् इत्युक्ते कर्मद्वयम् अस्ति उदाहरणार्थं पृच्छति कः पृच्छति छात्रः पृच्छति छात्रः कर्तृपदं कर्ता सब्जेक्ट् एक्टर् कर्ता छात्रः पृच्छति छात्रः कं पृच्छति छात्रः अध्यापकं पृच्छति छात्रः अध्यापकं किं पृच्छति प्रश्नं पृच्छति एवमेव वदति प्रार्थयति आनयति इति चत्वारः धातवः एव व्यवहारे बहुधा पश्यामः इत्युक्ते दीस् आर् द मोस्ट् कामन्लि यूस्ड् व्यवहारे कामन्लि बहुधा पश्यामः ओके अस्तु अन्ये सन्ति परन्तु एते एव प्रसिद्धः अस्ति प्रसिद्धधातुः अस्ति वदति पृच्छति प्रार्थयति आनयति आनयति इति वदामः चेत् नयति अपि अस्तु अभ्यासं कुर्मः वा
भगिनी डिड् यू हेपन् टु सेण्ड् दिस् टु अस्
आं भगिनी ऐ डिड् नाट्
I don't seem to have received it, Bhagini. I don't know whether Bhagini, I missed it.
Bhagini, Preshishvati.
Yes, Bhagini.
I sent it via email, Bhagini.
Via email, is it? Okay, okay.
Namaskaram, Bhagini. Parameshwari.
Swagatam, Mahodaya. Parameshwari,
Mahodaya. Also, Bhagini, one question. Would it be wrong to use Tritiya Vibhakti in a sentence like Chhatraha Adhyapakena Prashnam Pruchati?
Bhagini, yeah. So Adhyapakam eva kar. Adhyapakam is Samyak Bhagini.
Okay, okay. So Tritiya will be wrong. Okay.
Tritiya, so we use Tritiya like No, we cannot use
we
it.
Cannot. Okay. I was just translating from Hindi. Adhyapak se, you know, so that would be wrong.
Yeah.
Kartane karam ko karan se, so adhyapak se prashna poocha, so that would be wrong, isn't
Lekin,
it?
Lekin ek hai baat ki tritiya vibhakti mein se apne paas rehta hai, aage nahi jata hai. Like fifth vibhakti ke maafik viyog nahi hota hai. Tritiya vibhakti is a instrument. So, हमारे पास रहेगा हमारे पास से हमने यूज किया
ओके इट इज द अदर से ओके ओके वियोग नहीं होता वेरी गुड पॉइंट थैंक यू
ओके आई डिड नॉट अंडरस्टैंड बट आई एम ग्लैड यू अंडरस्टूड
आई डिड दिस थिंग कर्ता ने कर्म से कहा
से कम्स ट्वाइस एक्चुअली
सो वन से इज स्टेइंग विद अस एंड अनदर फिफ्थ विभक्ति
अध्यापकात would be fifth.
हमारे धन्यवाद कीर्तिके भगिनी अस्तु आरम्भ
भगिनी
ऑफ कोर्स भगिनी
आई जस्ट नो दैट सो आई थॉट लेट मी
उत्तमं भगिनी उत्तमं धन्यवादः
Thanks to both of you for tolerating my question. Thank you.
I was so confused about this vibhakti, but last day I got it.
Oh, uttamam bhagini. I'm glad. Yeah. Astu. Sagari bhagini. Astu. Chatra.
Pataha. Patam, pato, patan. Chatraha. Patam, patati. छात्रः पाठान् पठति
उत्तमम् उत्तमम् अस्तु अग्रे शारदा भगिनी
आं भगिनि सीता मालां माले मालाः धरति
उत्तमं माला माले मालाः उत्तमं भगिनि सविता भगिनि
आं भगिनि अधिकारिणी अधिकारिणी युवती युवतीं वदति
युवतीं वदति अत्र बहुवचनं युवत्यः इति प्रथमाविभक्तिरूपं
युवत्यौ युवतीः युवतीः
अधिकारिणी युवतीः वदति अत्र प्रश्नाः अपि अस्ति खलु अधिकारिणी कां वदति
अधिकारिणी युवतीं वदति
युवतीं वदति अथवा तां वदति अधिकारिणी
वदति
बहुवचने कथं भवति
तां ते
श्रीनिवास महोदय
आं भगिनि गर्दभः वस्त्राणि वहति
अत्र
किं वदति तत् वदति कानि वदति तानि वदति
तानि वदति अस्तु
यु हव् गिवन् वस्त्राणि दीर्घ इस् दीर्घ ओर् ह्रस्व
वस्त्राणि एव या इट् शुड् बि नि
इट्स् नाट् फॉर राइट
धन्यवादः.
मीनिङ्ग् भगिनि
no like dirgha is like e like vastrani
in sanskrit if I intro hasva if you put the dirgha does the meaning itself changes or there is no word like that
no that the vastram vastre vastrani there is no alternate meaning no okay. like if I say vastrani the meaning does not change no
okay because sometime it happens in sanskrit you put something then it will be completely different meaning altogether so
aama nischayena atra tata nasti
like bhavati and bhavati
exactly yeah bhavati yeah it's a very very good example astu uma question bagini
which one bagini bhavati भवती किमर्थम् अहं पश्यति भवती किमर्थम् अहं माम्
माम् आवाम् अस्मान् सो बहुवचनम् आल्सो यू केन् से
आवाम् अस्मान्
अस्मान् भवती किमर्थम् अस्मान् पश्यति उत्तमं भवती किमर्थं
भगिनि उषा वदामि
उत्तमं भगिनि
किम् अहं बिकम् माम् स्पेलिङ्ग् इट् डस् इट् गो वित् बिन्दु अनुस्वार आर् डस् इट् गो वित् मकार बिकास् पश्यति
yeah pashyati is there so it become what you tell me anuswara or bindu I mean anuswara or makara
I thought it is anuswara
anuswara yeah anuswara eva anuswara yes
okay. So you are pointing me that out but I was wondering you know
ama nishchayena it will become with an anuswara
And what is the meaning of Gardabha
is a donkey.
Oh.
Yeah. And then Bahuvachanam also. How it will be Bahuvachanam?
Gardabha?
No, Gardabha. Yeah. No, for here, Uma Krishnan Bhagini.
Oh, for, okay.
Bhavati?
Bhavati Kita. Asma?
Asman, Astu. अस्मान् पश्यति अस्तु सन्ध्या भगिनी अहं
भवान् एव आह्वयामि भवान् भवन्तौ भवन्तः
भवान्
not able to recollect her. Bhavantam makarant okay bhavantam bhavantau bhavantah
so aham no, so it won't be bhavantah it will be bhavatah
bhavatah bhavantam bhavantau bhavatah am I right bhavantam bhavantau bhavatah
aham bhavatah eva ahvayami uttamam
Ahvayami would mean, Bhagini?
I'm calling you. I'm calling. Calling or inviting like that.
Ahuya is also calling, is it?
After calling, like having called.
Oh, okay. Ahvayami. Okay. So the base, what is the Moola Rupam of this word, Bhagini, for Ahvayami?
It's like Khvayati and then Ahvayati. Khvaya and Ahvayati.
ओके धन्यवादः भगिनि
चिन्ता नास्ति स्वागतम् अस्तु अग्रे केतकि भगिनि
आं भगिनि सः भवती आलिङ्गनं करोति सः भवतीः आलिङ्गनं करोति
उत्तमं भवतीः बहुवचनरूपं
बहुवचनरूपम्
एकवचनरूपं
भवती भवतीं
भवतीम् उत्तमं सः
भवत्यौ भवतीः
उत्तमं भगिनि धन्यवादः
धन्यवादः भगिनि
ज्योति भगिनि इदानीं कुत्र गच्छति इति अस्ति द्वितीयबिन्दु ज्योति भगिनि छात्राः कुत्र गच्छन्ति कुत्र आगच्छन्ति छात्राः अस्ति वा भगिनि ज्योति भगिनि ज्योति भगिनी अस्ति वा
आं भगिनि Somehow I got disconnected.
I thought so, Bhagini.
Chatraha Vidyalayaha Agachanti.
So how will the Vidyalayaha change?
Vidyalayaha Vidyalayau.
Vidyalayaha Vidyalayau Vidyalayaha Pratama Vibharti Rupani.
Yes,
now
yes,
we are doing
Bhagini.
Vidya Vibharti.
विद्यालयं
विद्यालयम् आगच्छन्ति
छात्राः विद्यालयम् आगच्छन्ति
विद्यालयम् आगच्छन्ति
उच्चन्ति
परमेश्वर महोदय
छात्राः अण्ड् आगच्छन्ति बहुवचनं सो विद्यालयः आल्सो विल् बिकम् बहुवचनं नो
नो दे आर् आल् कमिङ्ग् टु द स्कूल् द स्कूल् केन् बि वन् स्कूल् अण्ड् आल् द किड्स् आर् कमिङ्ग् देर्
Okay, because I thought everything is Bahuvachanam, this also should be Bahuvachanam. That's what the thinking I had, okay.
No. Not necessary, no.
Adhyapaha, Padashalaya.
Bhagini, can we say Vidyalaye?
No, Vidyalaye, if you are already there, Vidyalaye.
Ah, okay.
Patraha Vidyalaye Santi, Vidyalaye Patanti.
Oh,
but,
okay.
But they are not there yet.
Ah.
So, okay. So the object of their going is Vidyalaya.
Mm-hmm.
Yeah, Bhagini, you asked a very, very good question because people make mistakes here all the time.
Yeah.
So Bhagini, does Vidyalayam, the Vivachanam will be Vidyalayam.
See, Vidyalaya.
Vidyalayam.
It's the same like Ramaha, Kalo,
yes.
Ramaha.
Yeah. So it is Vidyalayam, Vidyalayo, Vidyalayan.
Vidyalayam. Okay. Astu, Parameshwar Mahodaya.
Adhyapaha Padashalayam Gacchati.
So Atra Api Padashalayam means they are already there.
Okay, okay. So adhyapaha
we just have to add the makara, that's it.
Padashalam.
Padashalam. Padashalam. Okay, yeah. So for dvitiya vibhakti eka vachanam kevalam makaram yojaniya tavateva anya kimapi nasti
bhagini.
एकनिमिषं भगिनि अध्यापकः पाठशालां गच्छति बहुवचनं महोदय बहुवचनं कथं भवति अध्यापकः
पाठशालौ
पाठशालां पाठशाले पाठशालाः
पाठशालाः
पाठशालाः रमां रमे रमाः पाठशालाः सो प्रथमाविभक्ति रूपं द्वितीयाविभक्तिरूपं समानमेव आकारान्तस्त्रीलिङ्गे अस्तु इदानीं वदतु केतकि भगिनी प्रश्नः
आं भगिनि भगिनि केन् यु रिपीट् वाट् यु से छात्राः विद्यालयः देट् मीन्स् विद्यालय इस् देर्
या विद्यालयः अत्र अस्ति छात्रः विद्यालयं गच्छति इदानीं छात्रः विद्यालये अस्ति प्रथमं प्रथमं छात्रः विद्यालये नास्ति. दे आर् नाट् इन् द क्लास्. ऐ मीन् दे आर् नाट् इन् द स्कूल्. ओके,
सो दे आर् कर्म.
Yes. So the purpose of their going, that is the object of their going, is the vidyalaya.
Okay.
Therefore, the goal of their going must take the makara. Vidyalayam gacchati. Kutra gacchati, vidyalayam gacchati.
Asu bhagini, dhanyavada.
Bhagini, can I just add something which might probably...
Of course.
Go to school is dvitiya. Vidyalayam gachati.
Correct.
And are in the school is saptami. Therefore, vidyalaye.
Correct.
Ketki bhagini, I don't know if that helps.
Hindi mein...
Vidyalay mein, matlab they are in the school.
Yes.
Therefore, saptami. Vidyalay ko... Huh? They are going to the school, therefore dvitiya vibhakti. Vidyalay ko jate hain, vidyalay mein hain, therefore saptami.
In Bombay Hindi, ghar pe jata hai. The pay is an extra thing.
That's so true, mother.
That beats all grammar.
Then vibhachanam will be paathashale, right?
No, paathashalam.
No, that is...
द्विवचने द्विवचने पाठशालां पाठशाले पाठशालाः
बाम्बे हिन्दी यू कान्ट् फिट् इन् टु एनी विभक्ति स्कूल् पे जाता है आई डोंट नो व्हिच वन
देन वी नो
इट्स नाउ उधर
देन वी नो
बाम्बे वाले नो इट्स नाउ उधर.
That's it. You can't convert, no vibhakti can come in Bombay Hindi.
That's so true.
Astu.
Dhanyavadaha.
Dhanyavadaha. Astu. Agre kaha asti Usha Bhagini.
Yeah.
Vayam.
Vayam. Pradarshinyaha is to be converted. Pradarshinyaha gachama. Without Pradarshinyam.
So, pratamam, what is pradarshinyaha? Eka vachanam va, dvi vachanam va, bahu vachanam va, pradarshinyaha?
Bahu vachanam. So, it will be pradarshini.
Pradarshini is the eka vachanam. So, can you tell the three
for... So, it will be pradarshinim.
Pradarshinim ekavachanam, okay. Continue.
Pradarshinyau. It is Hari, right? Hari. Pradarshin.
Not Hari.
Oh, it will be Strilingam.
Yeah, Strilingam, like Lekani. How will you say? Lekanim. Svikaromi, lekanyau svikaromi, lekanim, lekanyau?
Lekanihi.
Idanim
Pradarshinihi.
Pradarshinihi. So I tried not to show you, Bhagini. Uttama. Uttama. Pradarshinim, Pradarshinyau, Pradarshinihi, Gacchamaha. Uttama. Anya kopi asti va? Yasya nama aham na uktavati? अस्तु सागरी भगिनि अग्रे.
भक्तः मन्दिराणि गच्छति. मन्दिराणि बहुवचनं. सो इट् रिमेन्स् द सेम्.
करेक्ट्.
एण्ड् इट् इस् मन्दिरं मन्दिरे.
मन्दिराणि उत्तमं. भक्तः मन्दिराणि गच्छति. ओके. वनं वने वनानि, वनं वने वनानि. अस्तु अस्तु अग्रे. सो अत्र वाट् विल् बी द सर्वनामपदं? छात्राः कुत्र आगच्छन्ति विल् बी द क्वश्चन्. सर्वनामपदं
भक्तः कुत्र गच्छति?
कुत्र आगच्छति? सो ऐ मीन् कुत्र गच्छति? सो दि आन्सर् विल् बि तत्र एव.
तत्र
तानि गच्छन्ति? नो, तत्र.
तत्र
तत्र कुत्र? तत्र. हियर् वि हेव् काम् काम् अण्ड् काः अण्ड् आल् दट् बट् हियर् वि डोण्ट् हेव् दट्. कुत्र? तत्र और् अत्र. अस्तु. सो वाट् ऐम् सेयिङ्ग् इस् देर् इस् नो बहुवचन. ओके, देर् इस् नो पुल्लिङ्ग स्त्रीलिङ्ग भेदः नास्ति.
अस्तु भगिनि.
अस्तु शारदा भगिनि अग्रे. अत्र विना उपयुज्य
छात्राः विद्यालयाः विना कथं पठन्ति? बहुवचनं. सो इति छात्राः विद्यालयान् विना
विद्यालय उत्तम विद्यालयान् विद्यालयं विद्यालयौ विद्यालयान् विद्यालयं विद्यालयौ विद्यालयान् उत्तमम्. अस्तु सविता भगिनि.
अर्चकाः मालाः विना अलङ्कारं सम्यक् न कुर्वन्ति. अर्चकाः मालाः अर्चकाः मालाः विना अलङ्कारं सम्यक् न कुर्वन्ति.
उत्तमं. मालाः मालां माले मालाः उत्तमम्. अस्तु श्रीनिवास महोदय.
आं भगिनि, नद्यौ नद्यः. सो नदीं नद्यौ नदीः नदीः विना जीवनं कठिनम्.
उत्तमं. नदीः विना जीवनं कठिनं. नदीं नद्यौ नदीः. ओके उत्तमम्. उमाकृष्णन् भगिनि.
आं भगिनि, जलं विना मीना न जीवन्ति. जलं जले जलानि सम्यक् वा? जलानि
जलं जले जलानि रूपाणि सम्यक् एव. अत्र किम् आगच्छति? अत्र किं
जलानि विना
जलमेव जलं जलमेव जलं विना जलं विना मीनाः न जीवन्ति. अस्तु सम्यक् एव.
धन्यवादः.
धन्यवादः भगिनि. सन्ध्या भगिनि, अत्र त्वान्तरूप
छात्रः पाठः पठित्वा अर्थं जानाति. पाठं पाठौ पाठान् पाठं पठित्वा अर्थं जानाति.
पाठं पठित्वा अर्थं जानाति
और पाठान् पठित्वा अर्थं जानाति.
पाठान् पठित्वा अर्थं जानाति. ऐ थिङ्क् ऐ मेस्ट् अप् हियर्. सो समथिङ्ग् एल्स् शुड् कम् हियर् विच् ऐ डिड्न्ट् डू. बट् त्वान्तरूपं ओके पाठ ओके हियर् इट् शुड् बि अर्थं ज्ञातुं. ओके 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 अग्रिमं सन्ध्या भगिनी अभवत् केतकि भगिनी.
आं भगिनि,
ज्ञात्वा आल्सो दर्
नो टु नो यु आर् स्टडिङ्ग्. So, once you know, why would you study?
Okay.
Artham, artham, nyatva, vadati, maybe you can say.
Okay.
Chatraha. Chatraha, artham. Yeah, because artham is coming. Nyatum, patham, patati.
Patati, uttam. So, tvantarupam, tumunrupam, and lyabanta roopam we get dvitiya vibhakti roopam.
Yes.
Jyoti bhagini.
Bhagini. Balika Saraswati Devim namaskritya vidyalayam gacchati.
Uttama. Saraswati Devim namaskritya Devim namaskritya vidyalayam gacchati. Uttama.
Bhagini.
Bhagini.
In this vidyalayam api dvitiya vibhakti. Saraswati Devim dvayam dvitiya vibhakti.
But this is not a dvikarmaka dhatu, Bhagini.
Bhagini, but it will come as a dvitiya vibhakti.
Saraswati Devim namaskritya vidyalayam gacchati.
There are two verbs.
Correct.
Kritya after.
Two different verbs, correct. Astu. Parameshwar Mahodaya, agree. So, idanim paritaha ubhayataha ityadi. Paritaha ityukte sarvatra. Madhya kimapi asti sarvatra something as asti. Ubhayataha vamataha dakshinataha ityadi. Astu.
Deepaha paritaha jalam asti.
So, this is dvipa. सो अत्र द्वीपम् आगन्तव्यं द्वीपम्
द्वीपं परितः जलम् अस्ति
द्वीपं परितः जलम् अस्ति अस्तु उषा भगिनी
सूर्यं
Bhagini, can we just do the three forms so that it gets fixed? द्वीपं द्वीपौ द्वीपान् so that we get it correct. Can you just do that, please?
Astu. Parameshwar Mahodaya. Dvipam vadatu pullinga padam.
Dvipam?
Dvipam, astu. Dvipam, dvipau, dvipan. Dvipam, dvipau.
Dvipau, dvipan.
Dvipam, dvipau, dvipan. Like Ramam, Ramau, Raman.
Okay.
Ramam Ramau Raman Dvipam Dvipau Dvipan Napumsakalinga Padam Dvipam Katam Bhavati
Dvipam Dvipau
No Dvipam Parameshwar Mahodaya Bhavan Vadatu Napumsakalinga Padam Pustakam Pustake Pustakani Iti
Dvipam Dvipe Dvipani
द्वीपं द्वीपे द्वीपानि उत्तमं द्वीपं द्वीपे द्वीपानि
नपुंसकलिङ्गं
नपुंसकलिङ्गं सो इट् इस् बोत् पुल्लिङ्ग एण्ड् नपुंसकलिङ्ग बोत्
ओके
उषा
बोत् एक्चुलि बिहेव् सेम् वे
राइट् नो डिफरेंटलि खलु
रामः रामौ रामान् द्वीपः द्वीपौ दीपान् And then as a napunsakalinga dvipam
dvipam dvipau dvipan
pullingam as a pullingam or a napunsakalinga
yeah so as a pullinga one dvipam dvipau dvipan napunsakalinga dvipam dvipe dvipani
okay that's what I thought okay I was confused over there
Ushab.
Okay, I do the next one? Okay.
Bhavati eva.
Suryaha, suryam paritaha grahaha santi. Suryam, surya, suryam, surya, surye, suryani. Suryani. No, it is suryam is, suryaha it will be, right?
Ramam, ramau, raman.
Suryaha, so it will be like Rama, okay.
सूर्यः
सूर्यौ सूर्यान्
सूर्यं सूर्यौ सूर्यान्
सूर्यं सूर्यौ सूर्यान् ओके
सो अत्र ग्रहाः ग्र नवग्रहं नवग्रहं ग्र गृहाः
ओके ग्रहाः सन्ति
ग्रहाः अस्तु सागरि भगिनि
सस्यं परितः मृगाः इस् इट् पिबन्ति
या पिबन्ति दट्स् अ मिस्टेक् हियर् पिबन्ति
इट् इस् अ नपुंसकलिङ्ग पदं सो इट् विल् बि सस्ये सस्यानि
सस्यं सस्ये सस्यानि उत्तमं परितः मृगाः पिबन्ति अस्तु शारदा भगिनि
आं भगिनि युवती परितः युवकाः सन्ति युवतीं युवत्यौ युवतीः युवतीं परितः युवकाः सन्ति
युवकाः सन्ति अस्तु श्रीनिवास महोदय
आं भगिनि शाटिकां परितः महिलाः क्रीणार्थम् आगच्छन्ति शाटिकां
शाटिके सो द औ कम्स् ओन्ली फार् पुल्लिङ्ग
शाटिकां शाटिके शाटिकाः
शाटिकां शाटिके शाटिका शाटिकाः परितः महिलाः क्रीणार्थम् आगच्छन्ति अस्तु अग्रे उमाकृष्णन् भगिनि
आं भगिनि मार्गः उभयतः वृक्षाः विद्युद्दीपस्तम्भाः च सन्ति
सो दिस् इस् मार्गः खलु एकवचनं
ओके सो मार्गः मार्गे मार्गान्
मार्गः इस् पुल्लिङ्ग खलु सो ओन्लि फार् पुल्लिङ्ग वि हाव् औ इन् द मिडल् औ
सो दिस् इस् आल्सो पुल्लिङ्ग नो
पुल्लिङ्ग
रामः रामे रामं
रामं रामौ रामान्
ओके मार्गं मार्गे
मार्गं मार्गौ
मार्गान् मार्गं
मार्गे मार्गं मार्गौ मार्गौ मार्गान्
मार्गं मार्गौ मार्गान्
मार्गं मार्गौ मार्गान् मार्गं मार्गौ मार्गान्
What's the right form, Bhagini, here?
So, atra margaha asti kalo. Margaha is pratama vibhakti ekavachana roopam.
Yeah.
So, we say margam.
Margam. Okay. Dhanyavadam.
Dhanyavadam. Margam ubhayataha vrikshaha vidyuddeepasambaha cha santi.
Vidyuddeepa is iddhi the combined together is coming under word. Iddhi is this.
Vidyut, the term becomes the...
Half the and then D as Gunita Aksharani it comes in, Vidyut D.
Vidyut D, you know. It's like this. So we have the, that is half.
Aksharani, D can comes on top of it, okay, got it.
Like that. Astu, agre... सन्ध्या भगिनी
नदीं नद्यौ नदीः नदीम् उभयतः ग्रामाः सन्ति
नदीम् उभयतः ग्रामाः सन्ति अस्तु केतकी भगिनी
अम्बा उभयतः तस्याः पुत्राः उपविशन्ति अम्बा आकारान्त
So it will become
amba ambe ambaha
amba because we are doing Dvitiya Vibhakti, Kalu. What is the Lakshanam for Dvitiya Vibhakti?
Always comes Ambam.
Ambam, Uttama, Ambam.
Ambam, Ubhayataha, Tasyaha, Putraha, Upavishanti.
Astu, Uttama, Ambam, Astu. Agre, Jyoti Bhagini.
Aam Bhagini. Bhavanam Ubhayataha, Apanaha, Santi. Bhavanam, it is bhavanam only,
very good Bhagini.
Bhavanam ubhayataha apanaha santi.
Apanaha santi. Trini rupani kani bhavanam.
Bhavanam, bhavanau, bhavanaha.
Bhavanau is only for pulling.
Pullinga. Bhavanam, bhavana.
Bhavane.
Bhavanam, bhavane, bhavanaha.
Bhavanani, because it is
Napumsakalinga, yes, Bhagini.
Bhavanam,
bhavane, bhavanani.
Bhavanani, Uttama. Bhavanam, bhavane, bhavanani.
Bhavanani. This won't change, it will be same. Bhavanam. Same.
Correct. Astu. So, now we are doing Dvikarmaka Dhatu. Okay. What are the four Dhatu? Prichati, Vadati, Prarthayati,
Anayati.
Anayati. Okay, these four. Vadati, Prichati, Prarthayati, Anayati. Okay. So, and its variations also. Udaharanatam, Anayati, Nayati, Api. Vadati, Katayati, Nivedayati, all these words also. Bruhi, we say Bruhi, Kalo Bruhi. That is Vadati.
Uktavati also, Hagim?
Mahodeya Vastu?
Any word which gives the same meaning broadly.
Exactly. Same meaning. So different variations, like in Nayati is also like, you know, Anayati is to bring, Nayati is to take, same thing. Pratayati, Prichati, Astu. Astu. Agreka, Parameshwar Mahodaya.
Sorry, which one?
This one. Mama Mata Mahi.
Mama Mata Mahi. Aham. Mama Mahavadi.
Mom.
Jasmine.
Mom. Mama Mata Mahi. Mom.
Mahi. Mom. Ramayana Kada. Vadati.
Katam becomes katam.
Katam.
Because it becomes the object, Kalu. So all Dvitiya Vibhakti will end in am. Ekavachane. Okay. All ekavachanam will end in ma. Sarvatra. Tata eva. Pullinga, Srilinga, Napumsakalinga, Akara, Ikara, Sarvanama Padam, Sarvatra. Mama Mata Mahi, Mam Ramayana Katam Vadati.
Or Katayati.
Katayati. So there are variations of Vadati Kalo. Uktavati, Uktavan. Vadishyati, Uktva, Kimapi.
Bodhayati also will come there?
Mahodaya, what?
Bodhayati.
Bodhayati, Uttama. Bodhayati. Patayati.
Okay.
Everything. Patayati. Ramayana Katam, Patayati. Mama Mata Mahi, Mam. Ramayana Katam Patayati Bodhayati. Everything which has the same meaning. Astu. Usha Bhagini.
छात्राः छात्राः अध्यापिकाम् अध्यापिकाम् अध्यापिका इट् बि लैक् माला रैट् अध्यापिकाम्
How will you go? The Trini Rupani?
I'm looking at the examples and it's Ramam. It's like Ramam? No.
Mala, male, mala.
Okay, mala, male, mala.
Mala, male.
Male, mala, ni.
Mala,
ha. Mala, I'm sorry, yeah. So what did I write this? Let me see. Oh, I said chhatraah, adhyapikam. प्रश्नाः अथवा सन्देहाः और् प्रश्नान् सन्देहान् पृच्छति पृच्छन्ति
पृच्छन्ति अस्तु प्रश्नान् सन्देहान् पृच्छन्ति अध्यापिकाम् अस्तु अस्तु अग्रे सागरि भगिनि
आं भगिनि भक्ताः विनयेन देवः देवः देवं
देवं
देवं देवौ देवान् पुत्रीं पुत्रीं पुत्र्यौ पुत्र्यौ पुत्रीः प्रार्थयति
प्रार्थयति भक्ताः विनयेन देवं पुत्रीः
प्रार्थयति
पुत्रीः प्रार्थयति उत्तमं शारदा भगिनी
एक्स्क्यूज़ मी पुत्री इज़ डॉटर नो व्हाट डज़ दिस मीन दैट पुत्री प्रार्थयति
पुत्री भगिनी ना पुत्री ही
वांट पुत्रीमेव पुत्रीमेव
एकवचनं भगिनी
एकवचनमेव पुत्रीमेव
अर्थं किम्
अर्थं किं भवति वदतु
भक्ताः विनयेन वित् ह्युमिलिटि
ह्युमिलिटि
देवं भगवान्
प्रार्थयति मीन्स् प्रार्थनां करोति
अस्तु
फार् अ डाटर् पुत्री
praying for a daughter.
Prayed for a daughter, yeah.
It's not praying like, no, to have a daughter or she prayed for a daughter she already had. That was
for
my doubt.
Welfare of the putri.
I didn't understand that.
She was asking for a daughter is what I understood.
Yeah,
okay. I was a bit confused because you're asking for a daughter, you're praying for a daughter. So that was my confusion.
So if you're going to pray for the welfare, you say putriyah arogyartam.
Am bagini.
Pratayati. Astu. Savita bagini.
The three forms is putri, putrau, putri.
Balakaha.
Putri, putriyau, putrihi.
Putriyau,
putrihi.
So it's following, okay, like Gauri, right?
Gaurim, Gauriyau, Gaurihi.
Bhagini, I'm still a little confused, I'm afraid. For a daughter, for normally is Chaturthi Vibhakti, isn't it?
When you come to that Prarthayati, this is Dhanam Prarthayati. Devam Dhanam Prarthayati.
Okay.
So when it happens like that, we use the Prarthana.
Okay, so for these specific verbs, we use Dvitiya. Okay.
Let me see how they show it in Vibhakti Vallari. Aparadhi arakshakam kshamam pratyate. Yeah, this is how they have it. भिक्षुकः गृहिणीम् अन्नं प्रार्थयति प्रार्थयति Here they use prarthyate, but prarthyate.
Dhanyavada bhagini.
Astu.
Astu.
Kutrasmaha. Savita bhagini.
Savita bhagini. Aam bhagini. Balakaha nekaineha patashala nayanti. Balakaha
लेखनीं लेखन्यौ
लेखन्यः
लेखनीः
लेखनीं लेखन्यौ लेखनीः बालकाः लेखनीः पाठशालां नयन्ति
नयन्ति उत्तम लेखनीः पाठशालां नयन्ति नयन्ति अस्तु श्रीनिवास महोदय
आं भगिनि प्रजाः महाराज महाराजं क्लेशाः क्लेशाः क्लेशान् निवेदयन्ति
क्लेशान् निवेदयन्ति सो ऐ शुड् पुट् स्पेस् देयर् अस्तु क्लेशान् निवेदयति अस्तु सो निवेदयति वदति कथयति समान अर्थकपदम् वदति कथयति निवेदयति इत्यादि अस्तु
मै फोन् विच् वास् रिङ्गिङ्ग्
ओ अस्तु उमाकृष्णन् भगिनि
भगिनी त्रीणि रूपाणि महाराजं महाराजौ महाराजान्
महाराजान्
सम्यक् वा
सम्यक् भगिनि क्लेशः अपि समानमेव क्लेशं क्लेशौ क्लेशान् इदानीम् उमाकृष्णन् भगिनि
आं भगिनि गुरु गुरुः अयं
माम् अस्मान्
Sorry?
Maam, avam, asman.
Asman.
Maam, avam, asman. So, atra, asman.
Asman. Okay, why am I? Asman, mantraha. Mantraha. Mantran.
Mantran.
उपदिशन्ति उपदिशति
मन्त्रान् उपदिशति मन्त्रान् गुरुः अस्मान् मन्त्रान् उपदिशति उपदिशति इट् फार्म्स् इट् कम्स् इन् द सेम् थिङ्ग् लैक् कथयति वदति पाठयति उपदिशति सेम् नाट् एक्साक्ट् सेम् मीनिङ्ग् परन्तु सेम् केटगरि
forms are told
yeah exactly
teachers in this case upadishatis teachers
vedayati patayati upadishati vadati katayati nivedayati told telling somebody something telling somebody astu sandhya bhagini
अहं भवन्तः द्वितीया विल् बि भवन्तं भवन्तौ भवतः अहं भवतः केचन प्रश्नाः प्रश्नः सो इट्स् लैक् रामः रामं रामौ रामान् प्रश्नं प्रश्नौ प्रश्नान् केचन प्रश्नान् श्वः प्रक्ष्यामि
उत्तम उत्तम अस्तु अग्रे केतकि भगिनि
महिलाः प्रतिदिनं नदीतः जलं गृहम् आनयति राइट महिलाः प्रतिदिनं नदीतः जलान्
नो जलम् एव बिकास् इट्स् ओन्ली एकवचनं खलु
जलं गृहम् आनयति
So it doesn't change.
Doesn't change, yes.
Mahilaha pratidinam nadītaha jalam griham
anayati.
Anayati. Astu.
Astu.
So do you want to do any more exercise from the Vibhakti Vallari or we can move on? Are you all comfortable with the Dvitiya Vibhakti?
Vahini, the comfort is broadly a function of, as long as we see Dvitiya Bhakti, Vibhakti, we are comfortable. The moment we go to Sashti, Dvitiya, he is gone off the shelf.
So can you do more practice with Vibhakti Vallari?
So true, Bhagini.
That's why I asked. It was pretty much clear and completely comfortable when we are in the class.
So that means we need more practice.
Lot more. Lots and lots.
That's what I thought.
No, Bhagini, mix it up and...
No, it may not be in the class, but we have to keep doing it. Otherwise, it looks very comfortable as I am talking to you now.
But when Sagari said we should do all three forms, then I was getting confused because I don't know the... because first we have to recognize whether it is Om Lingam, Sri Lingam or Napunsaka Lingam. Then you can fit
it in. So you need more exercise.
Yeah, so we
Gruha
need...
Patam, more Gruha Patam.
More Gruha Patam.
Somebody else was saying something, their voice is very soft. Probably Sandhya Bhagini, Vadatu?
No, Bhagini, it wasn't me.
It wasn't you. Somebody had a very soft voice and trying to say something.
It was me, Bhagini, Sharda.
No, Vadatu Bhagini?
No, regarding this itself, I was asking in the last class for more mixed up, you know, all the vibhaktis mixed up. Then we will know where we stand.
Bhagini, we must first consolidate this. Dvitiya, Tritiya, then Mishra Abhyasa will be helpful. Because we still not able to recognize whether it is the Tritiya, Dvitiya, when to use what. Unless we learn that, we cannot do Mishra Abhyasa, right?
No, what she means is we have learned Shashti, Saptami and Dvitiya so far. So we can give a mixed Abhyasam of these three. Actually, it's not a bad idea, Bhagini. I didn't have time to put it together. I'll try to put it together. So the problem with doing all... let me explain something. So the problem of doing all the Abhyasam in Vibhakti Vallari and then doing... This is going to take time. If you are okay with it, I'm okay with it.
We are okay, Bhagini.
What about the majority?
We can also do it as homework, Bhagini, so that...
Okay.
We can give more homework sheets.
So,
and then we can simply read out our answers so that you can tell us whether we are right or wrong. That way it will probably be a little faster.
No, what I can do is, I can give you this thing, I can just send it to you, or you can buy the book. But then the Uttarani is here. So, you know, we don't have to go
over this
in class because that is going to take time.
But Bhagini, I have a book that 10 pages are missing in this. So I can
send you this. The only thing is, you know, we are taking money away from Samskrita Bharati. So you guys can just contribute something to Samskrita Bharati.
Yeah, we can do that.
Which book is it?
We have the book.
If you have the Vibhakti Vallari.
This book is available. It's getting delivered at home in India.
Yes. Here, I have a book with 10 pages missing. I found from Sagari because Sagari had 10 more pages.
I ordered it online. It took about a week's time. It got delivered at home. They charge some 40 rupees regularly charges, but it is coming.
Yes, it comes.
It's a 30 rupee book and a 40 rupee delivery charges.
That's okay.
So, Bhagini, are you saying you can give us an e-copy? And we should contribute to some sort of action?
No, even e-copy you can buy, right? You can buy the e-book. I think it's available.
It's not there.
Well, e-book is not there.
They have removed it now. They have removed it.
This seems to be a scanned format of PDF. This is not an e-book. What Bhagini is having is not an e-book. It is just a scanned PDF file.
Yes, yes.
Scanned PDF file is fine. Because at least I'll be on the same page as her.
Yeah.
I have e-book, but it's, some things are missing in it.
Yeah, okay, see, I don't mind sending it, but, you know, we have some ethical problems. So we'll talk after class, okay? So the same way, if you want to do more Abhyasa, that another book called Abhyasa Patram. And that is also
there. Bhagini, that book is not available. I looked for it.
I see. So this also I can send you scanned one, but again, anyway, we'll talk about it later. So now we'll go on to Abhyasa Darshini, okay? Abhyasa Darshini, idani vayam bhutakale smaha. Bhutakala. So for you to remember bhutakala, you have to go to the handout, Kalo. The handout will have all the forms.
The L1 handout. Yeah.
L1 handout. Patitavan, patitavati, kriditavan, kriditavati, all that stuff. So, atra, kriditavan, pullinge asti. Kriditavati, strilinge asti. Parantu, patati, patatu, patishyati. Atra, linga bedaha nasti. Parantu, patitavan, patitavati, tatra eva, linga bedaha asti. Ataha, patitavan, patitavati, et. So atra bhutakala iti lakaraha nasti. Lakaraha itikte linga bedaha na bhavati. Lakare. Lakare linga bedaha na bhavati. Purusha bedaha eva asti. Udaharanartam saha patati aham patami. Parantu atra saha sa patitavati aham api patitavati eva. Okay, so that is the introduction. So I think last week we finished reading this, Kalo, or no? Rameshah Rajakapanatah.
We read it last week,
Mahabhagini.
And how about this one, this Abhyasa?
We read only the first portion before the Visheshah.
Astu. So atra,
you asked us to do it as homework, I think, all the abhyasa.
So atra vishesha kim asti itikte patitavan patitavantah. It's like bhavan bhavantah. Okay, so it is very much close to bhavan shabda. So for bhavan, the moola rupam is bhavat. Kalo bhavat. That is the rupa. Same thing for this also. For any of these. Patitavan, it's actually patitavat. Patitavat is the moola rupa. Patitavat. What will be the moola rupam for militavan, militavantaha?
Militavat.
So from here, we can, if we know the forms for the Bhavan Shabda, we can know the forms for Patitavat Shabda. Same thing. So Bhavan Bhavantau Bhavantah. Patitavan Patitavantau Patitavantah. Same like Bhavan. And Bhavati and Patitavati is the same. Patitavati, patitavatyau, patitavatyah. Bhavati, bhavatyau, bhavatyah. Because it is the same thing, so all these are subject to vibhakti. Vibhaktihi asti, vibhaktayah bhavanti. Udaharanartham, we can say, yaha patitavan, patitavantam pashyami. He who has been reading, I saw him. Like that, we can make vibhaktis from these forms. Okay? But for now, we just have to know the forms. like vadati, it becomes uktavan. Gacchati, gatavan. Karoti, kritavan. Pashyati, drishtavan. Some rupams are very different. So we have to know the rupams. Bhutakale, there is another proper lakara, like apatat, agachat, avadat. So this is the actual rupa. Okay? This is the actual rupam we have to use. But right now we are not going to use it, because when we use upasarga, then we have to be very careful. Jagarukata ashrayaniya bhavati. So we have to be careful when we are using upasarga. Therefore, we are not using this one. Okay? So anyway.
Bhagini, what is the meaning of ashrayaniya?
Ashrayaniya means we have to follow.
Ashrayaniya means to follow.
Ashrayaniya, we have to follow. Jagarukata, carefulness, okay, have to be followed.
Okay.
Bhagini, is ashrayaniya is something similar to the anusarati, something like that?
Anusaraniya, correct, same thing. Anusaraniyam. Anusaraniyam. They are all samanarthaka padani.
Bhagini, you told us about the pullinga and strilinga rupa for this tvaktu pratyaya. Is there something like a respectful version also? Is there something like that, Bhagini?
No.
There isn't.
No.
So, patita vat is just the base form. It is not a form by itself.
Yeah, by itself. And then that is, so we have only pullinga and strilinga. We don't have napumsakalinga.
Okay.
So supposing the fruit had fallen, we just say patitam eva.
Okay.
What does upayoktavyani mean?
Bhagini, vadato?
Upayoktavyani
means ought to be used. So that is in the passive voice.
Okay. So to be used. Upayogam means to use.
So all this time we have been using active voice. Kalu, like, vayam upayogam kurmaha, like that. That's what does it. Okay, so can we start the exercises now?
Yeah.
Sagari Bhagini, Aramam Karotu.
Sevakaha Karyam Kritavan.
Kritavan, okay. So I just want to read it. Rikshasthanani Bhutakala Rupaihi Purayata. Rupaihi, what is the Vibhakti Tatra? Rupaihi Purayata.
Tritiya
Bahuvachana. Sahayartam, for help. Sahayartam, avarane, within parenthesis. Avaranam, avarane, saptame. Bhutakala rupasya bhagaha, one part of the bhutakala rupam. Suchitaha asti, has been given, indicated. Okay, sahayartam, avarane, look at all the vibhaktis there. Sahayartam, it is basically chaturthi vibhakti. Sahayartam, avarane, within saptami, bhutakala rupasya Shashti, Bhagaha, Pratama, Suchitaha, also Pratama.
Bhagini, Chaturthi, shouldn't it be Sahayaya?
Sahayaya,
yes. Sahayaya, Sahayartam, both are same.
Yeah, it's the same thing, but different form. But the proper Chaturthi Vibhakti is Aya, as you said.
Yeah, correct. Because when question comes in, Sahayartam, the answer should come.
सहायार्थं यस् करेक्ट् फार् एक्साम्पल् किमर्थं पठति ज्ञानार्थं पठामि ज्ञानाय पठामि इस् आल्सो एक्सेप्टबल् बट् ज्ञानार्थम् इस् द प्रापर् वन् वेन् यु हेव् द क्वश्चन् किमर्थम्
And Bhagini, for this Sahayartham, there is no Linga Bedaha, right? It can be used with Sri Lingam, Pullingam and Napunsaka Lingam. That's why it's easier to use than the proper Chaturthi form, right?
No, like for example, if I say Aham Patanaya Gacchami, that is also like an Avyaya. There is no linga you are just using the form. Okay, like patanaya pustakam svikaromi, patanartham pustakam svikaromi, patitum pustakam svikaromi. So you can use all three forms. They are all avyayani, although you are using the form of the proper chaturthi. But for whom are you doing? Then it is Ramaya. If it is for Sita, I cannot say Sitaya. I have to say Sitayai. Okay, so there is a difference there. For whom? Okay, Astu. Okay, let's complete this exercise. Astu. Sharada Bhagini. Acharyaha.
आचार्यः कथाम् उक्तवान्
आचार्यः कथाम् उक्तवान् सविता भगिनी
आं भगिनी माता पुत्रीम् आहूतवती
आहूतवती माता आहूतवती श्रीनिवास महोदय
आं भगिनि अहं चित्रं दृष्टवान्
दृष्टवान् अस्तु उमाकृष्णन् भगिनि
छात्रः प्रश्नं पृष्टवान्
पृष्टवान् अस्तु सन्ध्या भगिनी
अहं वाक्यस्य अर्थं ज्ञातवती
ज्ञातवती अस्तु केतकी भगिनी
सेविका पात्रं प्रक्षालितवती
प्रक्षालितवती उत्तम ज्योति भगिनी
आं भगिनि
सः मां स्मृतः
स्मृत सो वि आर् यूसिङ्ग् वान् आर् वति
सः मां स्मृति
स्मृत व
स्मृतवती
स्मृतवान् खलु सः
सः ओके पुल्लिङ्ग सः मां स्मृतवतः
स्मृतवान् एव स्मृतवान् प्रक्षालितवान्
स्मृतवान्
स्मृतवान् सः मां स्मृतवान्
आं भगिनि सः मां स्मृतवान्
अस्तु परमेश्वर महोदय
अहं पुस्तकं क्रीतवामि
क्रीतवान् एव क्रीतवान्
क्रीतवान् ओके दट् डजन्ट् चेंज
बिकॉज़ यू आर यूजिंग भूतकाल आमि डजन्ट् कम वाट् आम आन एव
एंड इफ यू आर फीमेल यू से क्रीतवती
क्रीतवती क्रीतवान् क्रीतवती
अहं पुस्तकं क्रीतवान्
क्रीतवान् वर्तमानकाले अहं पुस्तकं क्रीणामि भविष्यत्काले अहं पुस्तकं क्रेष्यामि But this is not any of those, so it is one. Kreetavan. Aham pustakam kreetavan kreetavati. Usha Bhagini.
Aham dhanikah dhanam dattavan.
Dattavan. Dhanikah dhanam dattavan. Sagari Bhagini.
Definitely used as a pumlingam, right?
Dhanikah.
If it is a female, it would be one. Dhanika?
Dhanika.
Okay.
Sagari Bhagini.
Putraha. पुस्तकानि आनीतवान्
आनीतवान् अस्तु पुत्रः पुस्तकानि आनीतवान्
दिस् इस् वेरी ईज़ी
या दिस् इस् ईज़ी या अस्तु शारदा भगिनी
अनुजा उत्तराणि लिखितवती.
उत्तमं. अनुजा लिखितवती. अस्तु, सविता भगिनी कृपणः. सविता भगिनी नास्ति वा?
आं भगिनी, ऐ एम् देयर्, ऐ एम् देयर्. ऐ डिडन्ट् अन्म्यूट् इट्. या, जस्ट् अ मिनट्.
ओ, अस्तु अस्तु.
कृपणः धनं गणित गणितवान्.
गणितवान्, अस्तु.
कृपणः धनं गणितवान्.
गणितवान्, अस्तु. श्रीनिवास महोदय,
कृपणः इत्युक्ते
मैजर्.
गणितवान् मीन्स् वान्स्.
प्रेषितवती, अस्तु. उमाकृष्णन् भगिनी, सखी
सखी फलं खादितवती.
खादितवती, अस्तु.
भगिनी भगिनी कृपणः लैक् महोदय is it different for greedy and miser? Are they two different words?
Yeah, they are two different words here.
Lobha would be greedy, right? Lobha.
Lobha.
Okay, because I was just checking dictionary. Kripanaha means needy, that's what it says.
Needy.
Needy, yeah. Needy is also one of the meaning. Miserly is also there, needy is also there.
Probably, yeah. Because he feels he is going to need it, that's why he is miserly. Yeah, makes sense.
Indigent, needy, little-minded, miserly means.
Oh, wow. Okay. Dhanyavada.
Bhagini.
Somebody else had a question, Bhagini, before you. Vadato.
Bhagini, does Preshitavati mean the same as Neetavati?
No, Preshitavati is I can just stay here and I can send an e-patram somewhere else, Preshitavati.
Okay.
Neetavati means I am taking it with me.
Okay.
What did you say, Bhagini?
Preshitavati means I am sending it through somebody to somewhere. Aham e-patram Preshitavati. So, Neetavati means I'm taking it with me.
Oh, okay. Neetavati, I see. Okay.
Okay. So, for both Aneetavati and Neetavati, I am the person who is doing it, right? Okay. Dhanyavada, Bhagini.
Astu. Agrima Abhyasaha evam asti Bhushanaha iti ekaha asti Pratidinam Prataha Tattat Dine. ओके, तत्तत् दिने करणीयानि कार्याणि, वाट् एवर् नीड्स् टु बि डन् आन् दट् आन् ईच् अण्ड् एव्री डे, एकत्र लिखति. एकत्र इत्युक्ते इन् वन् प्लेस्. एकत्र लिखति रात्रौ, सप्तमी आफ् रात्रिः, रात्रौ किं किं कृतं, वाट् वास् डन्, बिकास् इट् इस् कार्यम्, इट् इस् कृतं. किं किं कृतम् इति चिह्नेन अङ्कयति. चिह्नम् एक्स् चिह्नं, डन् चिह्नं, द चेक् चिह्नम्. एकस्य दिनस्य कार्यविवरणम् अत्र अस्ति. फार् वन् डेस् कार्यविवरणं, डीटेल्स्. एकस्य दिनस्य कार्यविवरणम् अत्र अस्ति. पुनः पठामि. भूषणः प्रतिदिनं प्रातः तत्तत् दिने करणीयानि कार्याणि एकत्र लिखति. तत्तत् दिने विभक्तिका सप्तमी, दिनं दिने. अत्र रात्रिः रात्रौ, सप्तमी अपि सप्तमी. किं किं कृतम् इति चिह्नेन अङ्कयति. चिह्नेन विभक्तिका अत्र चिह्नेन तृतीया. चिह्नेन, यूसिङ्ग् चिह्नम्, अङ्कयति. मार्क् देट्. एक वदतु.
Abhyasa 32,
Bhagini.
Yeah, yeah, yeah. Okay. Ratro is Saptami.
Saptami of Ratrihi. Dine is Saptami of Dina.
So is Ratro, is it Ekvachanam or?
Ekvachanam. Mm-hmm. Ekasya Dinasya. Vibhaktika Ekasya Dinasya. Shashti. एकस्य दिनस्य कार्यविवरणम् अत्र अस्ति. अध्यापकस्य
सारि भगिनि, वन् मोर् स्माल् डौट्. तत् दिने वुड् बि देट् डे इट् सेल्फ् एस् अगेन्स्ट् तत् दिने विच् इस् देट् डे इस् इट्
तस्मिन् दिने इट् बिकम् आर्
तस्मिन् दिने
तस्मिन् दिने आर् इफ् यु गोण्ट् रैट् इट् सेपरेट्लि तस्मिन् दिने अथवा दिने
tat dine would does it mean that day or that day itself bagini
for each day
for each day oh okay okay
tat tat dine for example monday for monday tat tat dine for monday what has to be done so for okay. that particular day
okay okay
tat tat dine like that dhanyavadah samayah abhavat recording padayami ekanimsham.